ओम नमो भगवते वासुदेवाय। अथाष्टमोऽध्यायः। श्रीशुक उवाच, हरितोरोहितसुतश्चम्पस्तस्मात् विनिर्मिता, चम्पापुरी सुदेवोतो विजयो यस्य चात्मजः, भरुकस्तत्सुतस्तस्मात् वृकस्तस्यापि बाहुकः, सौरिभिर्ऋतभूराजा सभार्यो वनमाविशत्, वृद्धं तं पञ्चतां प्राप्तं महिष्यनुमरिष्यति, और्वेण जानतात्मानं प्रजावन्तं निवारिता, आज्ञायास्यै सपत्नीभिर्गरो दत्तोऽन्धसा सह, सह तेनैव सञ्जातः सगराख्यो महायशाः, सगरश्चक्रवर्त्यासीत् सागरो यत्सुतैः कृतः, यस्तालजङ्घान् यमनाञ्छकान् हैहयबर्बरान्, नावधीत् गुरुवाक्येन चक्रे विकृतवेषिणः, मुण्डाञ्छ्मश्रुधरान् कांश्चिन्मुक्तकेशार्धमुण्डितान्, अनन्तर्वाससः कांश्चिद् बहिर्वाससो परान्, सोऽश्वमेधैरयजत सर्ववेदसुरात्मकम्, और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम्, तस्योत्सृष्टम् पशुम् यज्ञे जहाराश्वम् पुरन्दरः, सुमत्यास्तनया दृप्ता पितुरादेशकारिणः, हयमन्वेषमाणास्ते समन्तान्यखनन् महीम्, प्रागुदीच्याम् दिशि हयम् ददृशुः कपिलान्तिके, एष वाजिहरश्चौर आस्ते मिलितलोचनः, हन्यताम् हन्यताम् पाप इति षष्टिसहस्रिणः, उदायुधा अभिययुरुन्मिमेष तदा मुनिः, स्वशरीराग्निना तावन्महेन्द्रहृतचेतसः, महद्व्यतिक्रमहता भस्मसादभवन् क्षणात्, न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति सत्त्वधामनि, कथं तमोरोषमयं विभाव्यते जगत्पवित्रात्मनिखेरजो भुवः, यस्येरिता साङ्ख्यमयी दृढेह नौर्यया मुमुक्षुस्तरते दुरत्ययम्, भवार्णवं मृत्युपथं विपश्चितः परात्मभूतस्य कथं पृथङ् मतिः, यो समञ्जस इत्युक्तः स केशिन्या नृपात्मजः, तस्य पुत्रोऽंशुमान् नाम पितामहहिते रतः, असमञ्जस आत्मानं दर्शयन्नसमञ्जसम्, जातिस्मरः पुरा सङ्गाद् योगी योगाद्विचालितः, आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम्, सरैवां क्रीडतो बालान् प्राच्यदुद्वेजयञ्जनम्, एवं वृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै योगैश्वर्येण बालांस्तान् दर्शयित्वा ततो ययौ, अयोध्यावासिनः सर्वे बालकान् पुनरागतान् दृष्ट्वा विसिस्मिरे राजन् राजा चाप्यन्वतप्यत, अंशुमांश्चोदितो राज्ञा तुरङ्गान्वेषणे ययौ, पितृव्यघातानुपथम् भस्मान्तिददृशे हयम्, तत्रासीनम् मुनिम् वीक्ष्य कपिलाख्यमधोक्षजम्, अस्तौत्समाहितमनाः प्राञ्जलिः प्रणतो महान्, अंशुमानुवाच, न पश्यति त्वाम् परमात्मनो जनो न बुध्यतेऽद्यापि समाधियुक्तिभिः, कुतो परे तस्य मनः शरीरधी विसर्गसृष्टा वयमप्रकाशाः, ये देहभाजस्त्रिगुणप्रधाना गुणान् विपश्यन्त्युतवातमश्च, यन्मायया मोहितचेतसस्ते विदुः स्वसंस्थम् न बहिः प्रकाशाः, तम् त्वामहम् ज्ञानघनम् स्वभाव प्रध्वस्तमाया गुणभेदमोहैः, सनन्दनाद्यैर्मुनिभिर्विभाव्यम् कथम् हि मूढः परिभावयामि, प्रशान्तमाया गुणकर्मलिङ्गमनामरूपम् सदसद्विमुक्तम् ज्ञानोपदेशाय गृहीतदेहम् नमामहे त्वाम् पुरुषम् पुराणम्, त्वन्माया रचिते लोके वस्तुबुद्ध्या गृहादिषु भ्रमन्ति कामलोभेर्ष्या मोहविभ्रान्तचेतसः, अद्य नः सर्वभूतात्मन् कामकर्मेन्द्रियाशयः, मोहपाशो दृढश्छिन्नो भगवंस्तव दर्शनात्। श्रीशुक उवाच, इत्थम् गीतानुभावस्तम् भगवान् कपिलो मुनिः, अंशुमन्तमुवाचेदमनुगृह्य धिया नृप। श्रीभगवानुवाच, अश्वोऽयम् नियताम् वत्स पितामह पशुस्तव, इमे च पितरो दग्धा गङ्गाम् भोरहन्ति नेतरत्, तम् परिक्रम्य शिरसा प्रसाद्य हयमानयत्, सगरस्तेन पशुना क्रतुशेषम् समापयत्, राज्यमंशुमतिन्यस्य निःस्पृहो मुक्तबन्धनः, और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे सगरोपाख्यानेऽष्टमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।